अथ द्वितीयोऽध्यायः श्रौतस्मृतिविरुद्धत्वात् स्मृतयो न गुणान् हरेः निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम् देवतावचनादापो वदन्तीत्यादिकं वचः नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम् वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः स्वातन्त्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः भ्रान्तिमूलतया सर्वसमयानामयुक्तितः न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत् आकाशादिसमस्तं च तज्जं तेनैव लीयते सोऽनुत्पत्तिलयः कर्ता जीवस्तद्वशगः सदा तदाभासो हरिः सर्वरूपेष्वपि समः सदा मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवः मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा सर्वदोषोज्झितस्तस्माद् भगवान् पुरुषोत्तमः उक्ता गुणाश्च विरुद्धास्तस्य वेदेन सर्वशः इति ब्रह्मसूत्राणुभाष्ये द्वितीयोऽध्यायः।